भूमिका गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारत भूमि भागे। समीचीनोक्त्या केनचित् सुकविना साधु एवोक्तम् यदा अन्येषां देशानां सभ्यताः संस्कृतेश्च विकासस्य प्रथमं सोपानमारूढुं पदन्यासे प्रवृत्ताः आसन् मिश्रदेशे पिरामिड निर्माणेन जीवनस्य प्रत्यावर्तनशीलस्य वसन्तस्य स्वागतरूपान्ध विश्वासपरिपूर्णाः प्रथा प्रचलिताः आसन्। अन्यैः देशेस्तु सम्भवतः सभ्यतायाः आलोके दृष्टिरपि नोन्मीलितासीत्। तदा अस्यां शस्यश्यामलायां धारायां वेदानां ऋचाः प्रगाय जटिलैः ऋषिभिः मुनिभिश्च जीवनस्य जटिलानां प्रश्नानाम् उत्तराणि अन्वेषितानि। मदीयं स्वकीयन्त्रिदमेव मन्तव्यमस्ति यत् सभ्यतायाः संस्कृतेश्च प्रथमः सूर्योदयः भारतस्यस्मिन् भारते विकटमे भाधनरते बराबर भाधनरते तत्त्वज्ञान प्रकाशान्वेषणरते विकटबन्ध देशे एव बभूव एष एव देशः विश्वगुरुः पदव्याभिभूषितो अभूत्। अत एव मनोक्तम् एतद्देशप्रसूतस्य सकाशादग्रजन्मनः स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः। अस्मिन् देशे प्रसूतस्याग्रजन्मनः सकाशात् पृथिव्यां सर्वे मानवाः स्वं चरित्रं शिक्षेरन्। वस्तुतः अस्य देशस्य लक्ष्यनिर्देशकानां वेदानाम् उपनिषदां पुराणानां महाभारतस्य च विचारान् उपदेशानां गम्भीरां दृष्टिम् जीवनमूल्यानाम् उद्दाम भावनाः लोककल्याणस्योच्च भावनाश्च विलोक्य एतत् स्वीकरणीयमेव भवति। नैतिकतायाः यः उच्चादर्शः अस्य देशस्य महाकाव्येषु दृश्यते न तादृशोऽन्यत्र कुत्रापि। अत्र होमर रचितस्य इपिक काव्यस्य जकर्मे गीक काव्यस्य नामकः एकेलीज नामा स्वकीयं हेक्टर नामकं शत्रुं मरणान्तरं खण्डं खण्डं विधाय स्वीये रथे बद्ध्वा नगरे भ्रामयति। तत्रैव रामायणस्य नायको रामः स्वकीयस्य शत्रोः रावणस्य मरणावसरे तस्य संस्कारं कर्तुं विभीषणम् आदिशति। मरणान्तानि वैराणि निवृत्तं नः प्रयोजनं कृतामस्य संस्कारो ममाप्येष यथा तव। वाल्मीकि रामायण आमरणं शत्रुतां भवति अस्माकं प्रयोजनं निवृत्तम् इदानीमस्य संस्कारो विधीयताम् इदानीम् एष यथा तव ब्रिगडं भ्राता तथैव ममापि। उपनिषदां विषयतु शापेन हावर नाम शर्मण्यदेशीयो विद्वान् वक्ति इट हेज बीन द सोलेस्ट ऑफ माइ लाइफ एंड विल बी द सोलेस्ट ऑफ माइ डेथ। उपनिषदः न केवलम् अस्माकं जीवनाय शान्तिदायकः अपि तु अस्माकं मरणान्तरमपि शान्तिदायकः। न केवल शापेन हवरनामा विद्वान् अपि तु अन्येऽपि दार्शनिकाः उपनिषदः प्रशंसितवन्तः तथा विश्वस्मयी भारतस्य सर्वश्रेष्ठं दानम् उक्तवन्तः। एतासूपनिषत्स्वेव भारतीयदर्शनानि प्रतिष्ठितानि सन्ति। न केवलं न्यायवैशेषिकादर्शनानि एतासु आश्रितानि अपि तु चार्वाकबौद्ध जैन दर्शनानामपि मूलम् अन्नं वै प्राणाः इत्यादिषु उपनिषत्सु सूक्तिषु विद्यते। दर्शनस्य स्वरूपं प्रेक्षणार्थकात् दृश्यधातो भवकरणे वा ल्युटि कृते दर्शनशब्दं निष्पद्यते। भावार्थके ल्युटि कृते निष्पन्नस्य दर्शनशब्दस्य इक्षणमर्थः भवति परन्तु इक्षणस्य सम्पूर्णतया स एवार्थो नास्ति। यः लोके प्रसिद्धः लोके दर्शनशब्दस्य चक्षुषा जायमानो प्रत्यक्षः अर्थो भवति परन्तु वस्तुतः नैवमस्ति। यदा कदाचित् वयं रज्जुं सर्पत्वेनावजानीमः अनन्तरं चावजानीमः यत् नासीत् स सर्पः रज्जुरासीत् तदा वयं नैव व्यवहरामः। यत् मया सर्पो दृष्टः किन्तु वयं व्यवहरामः यत् मया रज्जु सर्पत्वेनावगता। अत्र सर्पस्य दर्शने अवगमे च नास्ति महदनन्तरं रज्जो सर्पत्वेनावगमः रज्जो सर्पत्वेन दर्शनं चास्ति एकमेव। परन्तु व्यवहारे यदा वयं सर्पं सर्पत्वेनावजानीमः तदेव व्यवहरामः यत् मया सर्पो दृष्टः। अनेन दिशा यथार्थ दर्शनमेव दर्शनमस्ति इक्षणमस्ति दर्शनमात्रमेव दर्शनं नास्ति। अनेनैव प्रकारेण वयमस्य जगत्तो अनेकानि वस्तूनि पश्यामः, परन्तु यद् वस्तु यथा विद्यते तद् वस्तु न पूर्णतः तथैव पश्यामः, दुःखं सुखम् अस्ति इति एवं पश्यामः, अनात्म शरीरादि आत्मा अस्ति इत्येवं पश्यामो वजानीमः, एतेषां जागतिकानां वस्तूनां यत् तथैव दर्शनमस्ति, यादृशानि तानि वस्तूनि सन्ति तद्दर्शनमेव, अर्थात् यथा दर्शनमेव अत्र दर्शनपदेन उच्यते, परन्तु कुत्रान्तरमायाति, लोके दर्शनं केवलेन चक्षुषैव भवति, परन्तु अत्र समस्तैरपि प्रमाणैः दर्शनं भवति, केनापि प्रमाणेन यद् यथार्थ ज्ञानं भवति तदेव दर्शनपदेन उच्यते। कर्णार्थके लुटि निष्पन्नस्य दर्शनशब्दस्यार्थः भवति येन दृश्यते, अर्थात् येन यथार्थोगमः सञ्जायते तदेव दर्शनपदेनोच्यते, दर्शनपदात् उभावपि अर्थौ गृह्यते, अर्थात् येन यथार्थोगमः भवति तद् यथार्थोगमश्च दर्शनपदेनोच्यते। दर्शनस्य प्रयोजनम्। भारतीयपरम्परानुसारेण प्रयोजनस्य चत्वारो भेदाः भवन्ति, ये च पुरुषार्थः संज्ञामालवन्ते। धर्मार्थ काम मोक्षाः। दर्शनानामपि प्रयोजनं धर्मार्थ काम मोक्षेभ्यः भिन्नं किमपि भवितुं न शक्नोति। अधिकांशतः दर्शनानां प्रयोजनं परमः पुरुषार्थः मोक्षः एवास्ति। अयं मोक्षो अमरतायाः प्राप्तिं मृत्योः पारं गगनमस्ति। एतच्च दर्शनादेव भवितुं शक्नोति, यतोहि इदानीमेव उक्तं यद्दर्शनस्यार्थः यथार्थावगमः विद्यते, तथा च यथार्थावगमादेव बन्धननिवृत्तिरूपः मोक्षः सम्भवति। अन्यान्य दर्शनेषु बन्धनस्य स्वरूपं पृथक् पृथक् अस्ति, अतः बन्धनस्य निवृत्तिरपि भिन्न भिन्न प्रकारिका भवति। यथा कश्चित् जनः कारायां विद्यते मुक्तिं चेक्षति, स कदा मुक्तिं प्राप्स्यति? यदा सः जानातु सः कारायां केन कारणेन विद्यते, कथञ्च मुक्तिं भवितुं शक्नोति। एतद् ज्ञात्वा तदानुकूलाचरणद्वारा स मुक्तो भवति। यदि कश्चित् बालः स्तम्भं प्रगृह्य स्थितः स्वयमेव चैवमवजानाति यदहं स्तम्भेन बद्धः, तदा तु तस्मै एतद् ज्ञानमेव पर्याप्तं यत् सः नैव स्तम्भेन बद्धः, केवलं स्वकीया मुग्धतया अवजानाति स्म यत् अहं बद्धः इति। केवलम् एतावतैव स बालः मुच्यते। अत एवापनिषुक्तम् तदस्ति श्लोकमात्मवित् छान्द उत्तर 4-1-3 विद्या अमृतम स्मृते ईशावास्योपनिषद 3-11। कानिचित् दर्शनानि यथा चार्वाकादयः मोक्षं दर्शनं प्रयोजनीभूतं नाङ्गीकुर्वन्ति, तेषां मते मोक्षपदार्थः डकटमे यादृशश्च न्यायवैशेषिकादिदर्शनेषु स्वीकृतः आलीकः, यादृशश्च मोक्षपदार्थः चार्वाकदर्शने स्वीकृतः मरणमेवापवर्गः, तादृशो मोक्षः कस्मैचिदपि नाभीष्टः, स पुरुषार्थो भवितुं नार्हति। तेषां चार्वाकाणां मते पुरुषार्थौ द्वौ एव विद्यते, अर्थः कामश्च। व्रकटमे अर्थकामावेव पुरुषार्थौ, अतः चार्वाकदर्शनस्य प्रयोजनमपि अर्थकामान्तर्गतमेव अस्ति, परन्तु सामान्यतः दर्शनस्य प्रयोजनं मोक्षरूपः चरमः पुरुषार्थः एव अस्ति। भारतीयपाश्चात्यदर्शनयोः शरणभेदः। पश्चिमदेशेषु दर्शनाय फिलासफी शब्दः प्रयुज्यते, यद्यपि फिलासफी दर्शनशब्दयोरर्थयोः पर्याप्तम् अन्तरं विद्यते। दर्शनशब्दस्य अर्थः यत्र यथार्थम् ईक्षणं यथार्थस्य क्षणस्य करणञ्च भवति, तत्रैव फिलासफी शब्दस्य अर्थः भवति विद्यायाः अनुरागः, यतो हि फिलास शब्दस्य अर्थः भवति विद्या, सोफिया शब्दस्य चार्थः भवति अनुरागी। एताभुभौ शब्दौ संयोज्य फिलासफी शब्दः सिद्ध्यति। अनेन दिशा फिलासफी शब्दस्य अर्थः केवलं विद्यायाः अनुरागः एव। पाश्चात्यदर्शनेषु दृष्टिगोचरो भवति, यत्र भारतीयदर्शनेषु टीका प्रतीका उपटीका क्रमेण पूर्वस्थापितानां सिद्धान्तानामेव प्रतिपादनं क्रियते, तेषामेव मण्डनञ्च क्रियते। अनेन प्रकारेण दर्शनानां बहुत्व सत्त्वेऽपि तादृशी दार्शनिकविविधता नैव दृष्टिगोचरी भवति, यादृशी च पाश्चात्यदर्शनेषु दृश्यते। केषाञ्चित् विदुषाम् अभिमतमस्ति यद् भारतीयदर्शनानाम् एतस्मात् कारणात् परिपूर्णो विकासः नैव सञ्जातः, किन्तु वस्तुतः नास्त्येवं। भारतस्य यावन्ति दर्शनानि सन्ति तेष्वेव अधिकांश दर्शनानां सिद्धान्ता अन्तर्भवन्ति केवलं विविधतायामेव विकासस्वीकरणं नैवोचितमस्ति। कस्यचित् विदुषः कथनमस्ति यत् भारतीयदर्शनानि यत्र उपनिषदात्मक तटबन्धाश्रयणेन वहन्त्याः नद्याः समानानि सन्ति तत्रैव पाश्चात्यदर्शनानि विना केनचित् तटबन्धेन कस्याञ्चिदपि दिशि प्रवहन्ति। वयं तु मन्यामहे यत् विना तटबन्धं नद्याः कस्याञ्चिदपि दिशि प्रवाहो नद्याः विकासो नैव वक्तुं शक्यते। भारतीयदर्शनेषु न्यायदर्शनस्य स्थानम्। भारतीयदर्शनेषु न्यायदर्शनस्य महत्त्वं सर्वातिशायी सम्भवतः। अत एव अस्य दर्शनस्य संज्ञा न्याय इति वस्तुतः न्यायपदस्यार्थः भवति। प्रमाणैरर्थपरीक्षणं न्यायः। न्यायभाष्यसूत्र 111 अर्थात् यत्र वस्तुतत्त्वावगमाय निर्णयाय च समेषां प्रमाणानाम् उपयोगो भवति स प्रणाली न्याय इति उच्यते। अत एव वस्तुतः न्यायसंज्ञा न केवलं गौतमीयस्य दर्शनस्य विद्ये अपि तु समेषां दर्शनानां न्याय इति संज्ञा। परन्तु अस्य पदस्य रूढिः कथं केन कारणेन वा केवलमस्मिन् गौतमीये न्याये प्रसिद्धा। विचारणीयोऽयं विषयः सम्भवतोऽस्य प्रधानतया तर्कप्रवणतया सूक्ष्मेच्छिकतया चास्य न्याय इति संज्ञा इति विभाव्यते। सम्भवतो अत एव बौद्धदर्शनायापि एष संज्ञा प्रदीयते। बौद्धन्याय इति पदेनाभिधानञ्च क्रियते। दिङ्नागस्य न्यायप्रवेश नामक एको ग्रन्थोऽपि उपलभ्यते अथवा प्रतिज्ञादि पञ्चावयवानाम् अपि न्यायसंज्ञा अस्ति। विकट में न्यायः पञ्चाङ्गमधिकरणम्। वात्स्यायनेऽपि प्रथमसूत्र न्यायभाष्यावसरे पञ्चावयवानां परम न्यायपदेनाभिधानं कृतम्। न्यायपदेन तेषां वाक्यानां समूह अभितो भवति यः अन्यं पुरुषम् अनुमानेन कस्यचित् विषयविशेषस्यावबोधोद्देशेन प्रयुज्यते। एतान् वाक्यानेव परं न्याय इति उक्त्वा तत्त्वनिर्णयस्याधारत्वेनोपदर्शितवान्। साधनीयार्थस्य यावति शब्दसमूहे सिद्धिं परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्षावयवा उच्यन्ते। तेषु प्रमाणसमवायः आगमः प्रतिज्ञा हेतुरनुमानम् उदाहरणं प्रत्यक्षम् उपमानम् उपनयः सर्वेषां एकार्थसमवाय सामर्थ्यप्रदर्शनम् निगमनम् इति स्वयं परमोन्याय इति एतेन वाग्यल्पवितण्डाः प्रवर्तन्ते नातो अन्यथेति तदाश्रया च तत्त्वव्यवस्था। न्यायभाष्यसूत्र प्रथम। एतस्मिन् समेषां प्रमाणानां समावेशोऽस्ति। प्रतिज्ञायां शब्दप्रमाणस्य हेतावनुमानस्य उदाहरणे प्रत्यक्षस्य उपनये च उपमानप्रमाणस्य अनेन दिशा पञ्चावयवास्तु निःसन्देहं न्यायपदस्य वाच्याः सन्ति। एतेषां गौतमीयदर्शने प्रधानतया गौतमीयदर्शनस्य न्यायसंज्ञा। एतेषां प्राधान्ये इदमेव प्रमाणं यत् कथायां कस्यचिदेकस्य अवयवस्य अप्रयोगे न्यूननामके निग्रहस्थाने वादी पतितो भवति। विकर्मे हीनम् अन्यतमेनापि न्यूनम् न्यायसूत्र 5-2-12। द्वयो हेत्वप्रयोगे हेतुरुदाहरणयोः प्रयोगे वा अधिकनामकं निग्रहस्थानं भवति। विकर्मे हेतुदाहरणाधिकमधिकम् न्यायसूत्र 5-2-13। अवयवानां विपरीतक्रमेण प्रयोगे अप्राप्तकालनामकं निग्रहस्थानं भवति। विकट में अवयवविपर्यासवचनं प्राप्तकालम् न्यायसूत्र 5-2-11। अनेन प्रकारेण एषां पञ्चावयववाक्यानां प्रधानतयापि अस्य गौतमीयदर्शनस्य न्यायदर्शनसंज्ञा यदि स्यात् तदा नास्त्याश्चर्यम्। भारतीयदर्शनेषु न्यायदर्शनस्य स्थानं सर्वातिशायी। एतत् स्वयं वात्स्यायनः न्यायभाष्ये न्यायविद्याया समासानां विद्यानां प्रतिपत्तं समेषां कर्माणामुपायत्वं समेषां धर्माणामास्यन्तं चोक्त्वा प्रतिपादितवान्। प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् आश्रयः सर्वधर्माणां सस्वदान्वीक्षिकी मता। न्यायभाष्य प्रथम सूत्र। अस्याः विद्यायाः महत्त्वम् एतावतैवावगन्तु शक्यते यद्विदुषामेकां प्रसिद्धा सूक्तिः कणादं पाणिनीयं च सर्वशास्त्रोपकारकम् कणाद पाणिनीय शास्त्रौ सर्वशास्त्रोपकारकौ स्तः एवमेव गौतम प्रमथितं शास्त्रं सर्वशास्त्रोपकारकम् एषोक्तिरपि प्रसिद्धः। अत्र कणाद शब्दः गौतम प्रमथित शब्दश्च केवलं वैशेषिक दर्शनस्य न्याय दर्शनस्य च बोधकौ न स्तः, अपि तु भावेव शब्दौ वैशेषिक न्याय दर्शनयोरुपलक्षकौ। एषा न्याय विद्या तर्क विद्या तर्कशास्त्रं हेतु शास्त्रं इत्यादि नामभिः अभिधीयते। कश्चित् कविस्तु गौतमीया विद्या तृतीयस्य नित्यस्योपलब्धिरिति मनुते, यस्मै एषा विद्या लब्धा तस्य ललाट शिम्निं विधिरपि कञ्चित् दृष्टां लिपिं लिखितुं समर्थो न भवति। मिलति नयनमक्षपाद प्रणिपतनेन ललाट शिम्नि यस्य विधिरपि पुरुषस्य तस्य बाले लिखितम् उदृष्टाम् लिपि कुतः क्षमेत। स्पष्टमस्ति यन्याय विद्याया अध्ययनम् अत्यन्तम् महत्वपूर्णम्। कस्मिंश्चिदप्यन्यस्मिन् दर्शने प्रवेशाय न्याय विद्या परमोपकारिणी, अत एव एष श्लोको विदुषाम् वृन्दे प्रसिद्धः। मोहम् ऋणद्धि विमली कुरुते च बुद्धिम् सूते च संस्कृत पद व्यवहार हेतु शास्त्रान्तराभ्यसन योग्यतया युनक्ति तर्कश्रमं न कुरुते किमिहोपकारम्। अनेन दिशां न्यायविद्यायाः स्थानं भारतीय दर्शनेषु अग्रगण्यम्। न्यायविद्यायाः प्रयोजनं यथा पूर्वम् उक्तमेव यत् अधिकांशतः दर्शनानां प्रयोजनं परमपुरुषार्थो मोक्षोऽस्ति। न्यायविद्यापि नास्यापवादभूता, अस्याः अपि प्रयोजनं मोक्ष एव। एतत् महर्षिणा गौतमेन प्रथमे एव न्यायसूत्रे प्रतिपादितं प्रमाणं प्रमेय संशय प्रयोजन दृष्टान्त सिद्धान्त अव्योतर्क निर्णय वादजल्प वितंडा हेत्वाभास छल जाति निग्रहस्थानानां तत्वज्ञान निःश्रेयसाधिगमः। न्यायसूत्र 111 प्रमाण प्रमेय संशय प्रयोजन दृष्टान्त सिद्धांत अव्योतर्क निर्णय वादजल्प वितंडा हेत्वाभास छल जाति निग्रहस्थानानां षोडश पदार्थानां तत्वज्ञानान् मोक्षः भवति। अत्र महर्षेरभिप्रायोऽस्ति यत् न्यायशास्त्राध्ययनेन पदार्थानां तत्त्वज्ञानं भवति तथा तेनात्मत्वसाक्षात्कारः भवति, आत्मतत्त्वसाक्षात्कारेण च मोक्षावाप्तिः। किन्तु सा मोक्षावाप्तिः आत्मत्वसाक्षात्कारस्यैव क्षणे न भवति, अपि तत्त्वसाक्षात्कारेण मिथ्याज्ञानं निवृत्ते। मिथ्याज्ञाननिवृत्त्या रागद्वेषमोहात्मक दोषाणां निवृत्तिः, दोषनिवृत्त्या धर्माधर्मरूपायाः प्रवृत्तेः, निवृत्ति प्रवृत्ति निवृत्त्या पुनर्जन्मनो निवृत्तिः, पुनर्जन्म निवृत्त्या च सर्वदुःख निवृत्तिरूपो मोक्षः अपरगः सञ्जायते। दुःखजन्म प्रवृत्ति दोष मिथ्याज्ञानानाम् उत्तरोत्तरापाये तदन्तरापायादपोरगः। न्यायसूत्र 112 महर्षिणा गौतमेन प्रणीतमिदं न्यायशास्त्रं जगतः त्रिविधाभिः यातनाभिः पीडितस्य प्राणिवर्गस्य कल्याणार्थमेवास्ति, तेषाम् आत्यन्तिक दुःख निवृत्तेः एवास्ति। अत एव श्रीमान् गङ्गेशोपाध्यायः स्वकीय तत्त्वचिन्तामणि ग्रन्थस्यारम्भे वदति, अथ जगदेव दुःख पङ्क निमग्नमुद्दिधीर्षुः अष्टादश विद्यास्थानेष्वभ्यरहित तमामान् वीक्षिकीम् परम् करुणिको मुनि प्रणिनाय अनेन प्रकारेण अस्य न्यायदर्शनस्य चरमम् प्रयोजनम् मोक्षमस्ति। आनुषङ्गिकम् च प्रयोजनम् बुद्धेः विमलीकरणम्। मोहावरोधाधिकानि सन्ति, धर्मस्य रहस्यावगमोऽपि न्यायविद्याया अस्याः प्रयोजनमस्ति। विना न्यायविद्याम् विकटम् वेदविरोधिनम् तर्कम् विना धर्मस्य रहस्यमवगन्तुम् नैव शक्यते। अत एवक्तम् मनुना आसम् धर्मोपदेशम् च वेदशास्त्रविरोधिना यस्तर्केणानुसद्धत्ते धर्मं वेद नेत्र। मनुस्मृति 12:106 न्यायशास्त्रस्य द्वौ प्रवाहौ गौतम प्रणीतस्य न्यायशास्त्रस्य साहित्यम् उभयो प्रवाहयो विभाजयितुं शक्यते। याभ्याम् सङ्गे क्रमशः प्राचीनन्यायः नव्यन्यायश्च स्तः, एतयोः सिद्धान्तेषु नास्ति महदन्तरम्। द्वयोः संज्ञाभेदः विषयप्राधान्यभेदेन विद्यते। प्राचीनो न्यायः प्रमेयप्रधानः, नवीनश्च प्रमाणप्रधानः। प्राचीनन्यायस्य शैली सरला आडम्बरविहीनास्ति, कुत्रचित् एतावती संक्षिप्ता साङ्केतिकी च विद्यते, यस्मात् तस्य प्रतिपाद्या विषयाः नैकेषु स्थलेषु शीघ्रतया बुद्धिस्था भवन्ति। तत्रैव नव्यन्यायस्य शैली वेचन प्रधाना स्थिता साडम्बरा उपरितः दुर्गमापि प्रतीयमाना अर्थतोऽत्यन्तं स्पष्टास्ति। पारिभाषिक्या शब्दावल्या परिचयति विषयस्तोगमे काचिदपि कठिनता न भवति। प्राचीन्याय विषयाणां विवेचनं स्थूलं भवति, नव्यन्याय तु सूक्ष्मतः परम सूक्ष्म विचारो भवति। एतस्मात् अतिरिक्तं द्वयो प्रस्थानयो कश्चित् सैद्धान्तिको भेदः नास्ति। केवलं प्रमेयस्य प्रमाणस्य च प्राधान्येन क्रमशः प्राचीनन्याय नव्यन्याय सङ्गे स्तः। मोक्षाय येषां षोडश पदार्थानां तत्त्वज्ञानम् अपेक्षितं तेषु प्रमाण प्रमेयावेव प्रधानौ एतयो प्रधानतैवेतत् संज्ञा ज्ञाद्वयम्। किन्तु एतयोरुभयोः प्रस्थानयो मूलं स्तोत्रं सूत्र न्यायमेव अस्ति। न्यायदर्शनस्य साहित्यं यद्यपि नास्ति बहुविस्तृतं परन्तु संकुचितमपि नास्ति। अस्य मूलस्रोतः तु न्यायसूत्रेषु वास्यानकृतं भाष्यम् उपलभ्यते। यच्च विद्वत्समुदाये तादृश एवादरभाग् यादृशं च व्याकरणे पतञ्जलेर्महाभाष्यम्। अत्र भाष्ये अनेकेषां विदुषां व्याख्यां समुपलभ्यन्ते। तासु श्रीमत्सुदर्शनाचार्याणां प्रसन्नपदां व्याख्या, श्रीमद्गङ्गानाथझामहोदयस्य खद्योट्टीका च प्रसिद्धा। न्यायसूत्रेषु श्रीमद्विश्वनाथकृता वृत्तिरपि समुपलभ्यते, या चात्यन्तमुपयोगिनी विदुषां समादरविषयां चास्ति। न्यायभाष्ये उद्योतकल्पितं न्यायवार्तिकं, वार्तिके श्रीवाचस्पतिमिश्रस्य तात्पर्यटीका, तात्पर्यटीकायाञ्च श्रीमद् उदयनाचार्यकृता परिशुद्धि। न्यायदर्शनस्य देहदीप्य मानासु मुक्तासु विद्यन्ते। श्रीमद् उदयनाचार्यस्य एतद् अतिरिक्ताः अपि वैशेषिक दर्शनस्य प्रशस्तपादभाष्योपरिकिरणावली, लक्षणावली, न्यायकुसुमाञ्जलि, आत्मतत्त्वविवेकादयो मौलिका ग्रन्था समुपलभ्यन्ते। नव्यं न्यायप्रवर्तकानां श्रीमतां गङ्गेशोपाध्यायानां तत्त्वचिन्तामणिस्तु तत्त्वचिन्तामणिदेवास्ति। एष ग्रन्थः एतादृशी बहुमूल्या मणिः विद्यते, या पण्डितजनानां मण्डनं पाखण्डरूपेण प्रचण्डस्य अन्धकारस्य तिरस्करणं वक्षिदलस्य विचारचातुर्यविलोपः तेन साकं च स्वीय सिद्धान्त प्रतिष्ठापने च न काचित् त्रुटिरुपलभ्यते आयाति च। अतः एतै स्वयमेव यतो मणे पण्डितमण्डनक्रिया प्रचण्डपाखण्डतमस्तिरस्क्रिया विपक्षपक्षेन विचारचातुरी न च स्वसिद्धान्तवचो दरिद्रता। अस्मिन् ग्रन्थे नैयायिक शिरोमणेः श्री रघुनाथ शिरोमणेः दीधित नाम्नी व्याख्या, पक्षधर्मिश्रस्य आलोक नाम्नी व्याख्या, मथुरानाथ तर्कवागीशस्य रहस्य नाम्नी व्याख्या प्रमुखा। एतासु त्रिषुष्वपि श्री रघुनाथ शिरोमणेः दीधित नामिका व्याख्यात्यन्तं प्रौढा। मूलग्रन्थस्य विचारान् अत्यन्त संक्षेपेण स्फोरणेन साकमेव कतिपयानां नूतनानां विचाराणामपि समावेशेन अत्यन्तं गम्भीरा महत्त्वपूर्णा च विद्यते। आलोक नाम्नी पक्षधर्मिश्र प्रणीता व्याख्या, चिन्तामणेरर्थानां प्रकाशिका विस्तृता व्याख्या विद्यते। मथुरानाथतर्कवागीशस्य रहस्य नाम्नी व्याख्या एतादृशी स्पष्टा सुबोधा चास्ति, यस्मात् तत्त्वचिन्तामणेः रहस्याणि बुद्धिमते विद्यार्थिने करामलकवत् भवन्ति। एतैः दीदितौ अलोके च रहस्य नामिके टीके विरचिते। एताभ्यः टीकाभ्यो भिन्ना अपि कणादतर्कवागीशस्य मणिव्याख्या, वर्धमानोपाध्यायस्य तत्त्वचिन्तामणिप्रकाशः, रुचिदत्तमिश्रस्य तत्त्वचिन्तामणिप्रकाशः, शङ्करमिश्रस्य तत्त्वचिन्तामणिमयूखः आदि अनेका व्याख्याः तथा जगदीश भट्टाचार्य, गदाधर भट्टाचार्य, हरिदास न्यायालङ्कार, हरिराम तर्कवागी, रघुदेव प्रभृतिने केषां विदुषां टीकाश्चोपलभ्यन्ते। यासु दीधितिमासित्यस्य विरचिता गदाधर भट्टाचार्यस्य गदाधरी, जगदीश भट्टाचार्यस्य जागदीशी चात्यन्तं प्रसिद्धिम् आवहतः। एतास्वपि विवृतिः गङ्गा प्रभृतिः व्याख्या प्रसिद्धाः। बच्चाझा प्रणीतानि क्रोडपत्रापि तु विदुषाङ्कृते निकषग्रामाणः विद्यन्ते। एवं प्रकारेण वयं पश्यामो यत् टीका प्रतीका उक्तिका टिप्पणी आदि क्रमेण ग्रंथानां पर्याप्ता संख्या न्याय दर्शने विद्यते एवमपि नास्ति यदेते विद्वद्भिः केवलं टीका ग्रंथाः प्रणीताः अपितु जगदीश भट्टाचार्यः तर्कामृतं शब्द शक्ति प्रकाशिका च गजाधर भट्टाचार्यैः व्युत्पत्तिवादः आदि अनेकाः मौलिकाः अपि ग्रंथाः प्रणीताः प्रकरण ग्रंथानां परंपरा शास्त्रैक देश सम्बद्धं शास्त्रकार्यान्तरे स्थितं आहु प्रकरणं नाम ग्रंथभेदं विपश्यतः यस्मिन् ग्रंथे कस्यचिद् एकस्य शास्त्रस्य प्रतिपाद्य विषयेषु कस्यचिद् कस्यैव विषयस्य प्रधानतया प्रतिपादनं भवति तथा साकमेव सम्बद्धा शास्त्रादन्यस्य शास्त्रस्य विषयाणामपि प्रयोजनानुसारं प्रतिपादनं भवति विद्वांसः तं ग्रंथं प्रकरणग्रंथम् इत्यविधानेन सम्बोधयन्ति प्रकरणग्रंथस्यास्याः परिभाषायाः अनुसारं वयं यदा पश्यामः तदावजानीमो यत् न्यायशास्त्रस्य प्रकरणग्रंथानां संख्या पर्याप्ता अस्ति तथा एतेषां प्रकरणग्रंथानां तत्तत् शास्त्र प्रतिपादित पदार्थावबोधे महती उपयोगिता अस्ति न्यायशास्त्रस्य प्रकरणग्रंथानां विभाजनम् अनेकैः प्रकारैः कृतम् पंडित श्री बद्रीनाथ शुक्लैः एतेषां चत्वारो विभागाः कृताः अवगमायितान् प्रकरणग्रंथान् वयं द्वयो प्रकारयोः विभाजामः न्यायदर्शन प्रधानाः प्रकरणग्रंथाः वैशेषिक दर्शन प्रधानाः प्रकरणग्रंथाश्च यथा चानेन विभागेनैव स्पष्टीभवति प्रथमे विभागे ते ग्रंथाः आयान्ति येषु न्यायदर्शनस्य पदार्थानां प्राधान्येन प्रतिपादनम् अस्ति द्वितीये विभागे ते ग्रंथाः आयान्ति येषु वैशेषिक दर्शनस्य पदार्थानां प्राधान्येन प्रतिपादनम् अस्ति न्यायदर्शन प्रधानाः प्रकरणग्रंथाः न्यायदर्शन प्रधानेषु प्रकरणग्रंथेषु भासर्वज्ञ व्यकरण में त्रयोदश शताब्दी कृत न्यायसारः वरदराज व्यकरण में द्वादश शताब्दी कृत तार्किक रक्षा केशव मिश्र व्यकरण में त्रयोदश शताब्दी कृता तर्क भाषा शशधर व्यकरण में द्वादश शताब्दी कृत न्याय सिद्धांत दीप जयंत भट्ट व्यकरण में दसवीं शताब्दी प्रणीता न्याय मंजरी आदि ग्रंथाः प्रमुखाः सन्ति न्यायसारः भासर्वज्ञ प्रणीतः महत्वपूर्णः प्रकरणग्रंथः विद्यते अस्मिन् ग्रंथे न्यायदर्शनस्य परम्परातः पृथक्त्वा प्रमाणानां प्रत्यक्ष अनुमान शब्दाः एव त्रयो प्रकाराः स्वीकृताः ज्ञातव्यम् अस्ति यन्न्यायदर्शनानुसारेण प्रमाणानां चातुर्विध्यम् अस्ति व्यकरण प्रत्यक्षानुमानोपमान शब्दः प्रमाणानि न्यायसूत्र 1.1.3 अस्मिन् ग्रंथे प्रमाणानां प्रतिपादनं प्रामुख्य नास्ति प्रमेय संशयादि शेषाणां पञ्चदश पदार्थानां प्रतिपादनं गौणतया विद्यते प्रत्यक्षस्य द्विविधो भेदः प्रदर्शितः यौगिकः लौकिकश्च यौगिकस्यापि द्वौ प्रकारौ विद्यते युक्तायुक्तभेदात् अयुक्तस्यापि द्वौ प्रकारौ आर्षो अनार्षश्च लौकिकस्य घ्राणजरासन चाक्षुष स्पार्शन श्रावण मनसा एते षट् प्रभेदाः उक्ताः मोक्षावस्थायां दुःख निवृत्ति पुरस्सरं शाश्वत सुखस्यापि समावेशः कृतोऽस्ति तार्किक रक्षा नामके प्रकरण ग्रंथे मुख्य रूपेण न्यायदर्शनस्य सिद्धान्तानां पदार्थानां च प्रतिपादनं कृतमस्ति तथा च वैशेषिक दर्शनस्य द्रव्यगुण कर्मादि पदार्थानां प्रमेय पदार्थेऽन्तर्भावः कृतोऽस्ति वैशेषिक दर्शनाभिमतानां पदार्थानामन्तर्भावो इष्ट एवास्ति तदा अक्षपादेन महर्षिणा अन्येषां प्रमेयाणां साकमेव एतेषामपि समुल्लेखपुरस्सरं लक्षण परीक्षे करणीये आस्ताम कथम नैव कृते अस्य प्रश्नस्योत्तरं वरदराजेनैव दीयते मोक्षे साक्षादनं गत्वा दक्षपादेन लक्षितं तन्त्रान्तरानुसारेण षट्कं द्रव्यादि लक्ष्यते मोक्ष रूपे परम पुरुषार्थे एतेषां द्रव्यादीनां पदार्थानां ज्ञानं साक्षात् कारणं नैव भवति अतः अक्षपादैरेतेषां लक्षण परीक्षे नैव कृते यतो हि मोक्ष साधकस्य तत्त्वज्ञानस्य विषयाणामेव प्रतिपादनं तेषां प्रत्येतमासीत्
केशव मिश्रस्य तर्क भाषायाः विषये वयमग्रे विवेचयामः। शशधरः न्याय सिद्धांत दीप नामकं ग्रंथं निर्मितवान्। अस्मिन् ग्रंथे न्याय दर्शनस्य विषयाणां प्रधानतया निरूपणमस्ति। साकमेव वैशेषिक दर्शनस्य विषयाणामपि निरूपणमस्ति। यद्यपि उभयोः दर्शनयोः कस्यचिदपि अन्यतरस्य दर्शनस्य विषयाणामत्र साकल्येन नास्ति निरूपणम्। एतयोः केषाञ्चित् प्रमुखाणामेव विषयाणां निरूपणमस्ति। जयन्तभट्ट प्रणीता न्यायमञ्जरी गौतमस्य न्यायसूत्राणां साक्षात् व्याख्यानभूता वृत्तिरस्ति। जयन्तभट्टस्य शब्देषु इयं न्यायसदिद्रुमाणां रसभूता आन्वीक्षिकी क्षीराद् उद्धृत निसर्ग निर्मल नवनीतभूता चास्ति। न्यायौषधिवेनेभ्यो अयमाहृतः परमो रसः इदमान्वीक्षिकी क्षीरान्नवनीतमिव धृतम्। अस्मिन् ग्रन्थे न केवलं न्यायसूत्राणां व्याख्या विद्यते अपि तु अर्थापत्तिः अनुपलब्धिः सम्भवैति ह्यानाम् अतिरिक्त प्रमाणत्व खण्डनम् कृत्वा चार्वाक बौद्ध जैनादीनाम् एक प्रामाण्यवादस्य प्रमाणद्वयवादस्य प्रमाणत्रयवादस्य अन्येषां च प्रतिपक्षि सिद्धान्तानां खण्डनं विधाय न्यायदर्शन राद्धान्तानां प्रतिष्ठापना कृतास्ति। प्रसंग प्राप्तानाम् अन्येषां मतानामपि सशक्तं निराकरणमस्ति। अयं ग्रन्थः स्वीयया शैल्या भाषा सौष्ठवेन भावगाम्भीर्येण प्रतिपादन दक्षतादि कारणश्च अत्यन्तं सम्माननीयः महत्वपूर्णश्च विद्यते। वैशेषिक दर्शनानां प्रकरणग्रन्थाः। वैशेषिक दर्शन प्रधानेषु प्रकरणग्रन्थेषु वल्लभाचार्य विक्रम द्वादश शताब्दी कृता न्यायलीलावती शिवादित्य मिश्र प्रणीता सप्तपदार्थी विश्वनाथ पंचानन विक्रम सप्तदश शताब्दी प्रणीतः भाषा परिच्छेदः विक्रम कालिकावलित्य परिणामधेयः अन्नम भट्ट विक्रम सप्तदश शताब्दी प्रणीतः तर्क संग्रह जगदीश तर्कालंकार टिकट में सप्तदश शताब्दी प्रणीतम तर्कामृतम लघुाक्षी भास्कर विकट में सप्तदश शताब्दी प्रणीता तर्क कौमुदी प्रभृति ग्रंथाः प्रमुखाः सन्ति। वल्लभाचार्य प्रणीता न्याय लीलावती न्याय वैशेषिको भय दर्शनयोः न्याय सिद्धान्तानाम् एकः विशाल प्रकरण ग्रंथोस्ति। ग्रंथेस्मिन् वैशेषिक दर्शनस्य पदार्थानां सम्यक् निरूपणमस्ति। अभाव नामकं पदार्थम् अभ्युपगम सिद्धांत पदेनाभिधाय तस्य वैशेषिक दर्शनाभिमतत्वामङ्गीकृतम्। अभावस्य च समानतन्तु सिद्धस्यापितसिद्धस्य न्याय दर्शने मानसेन्द्रियता सिद्धित्वादत्राप्य विरोधादभ्युपगम सिद्धांत सिद्धत्वात् न्याय लीलावती। अस्मिन् ग्रन्थे वर्धमानोपाध्याय कृतः न्याय लीलावती प्रकाशः रघुनाथ शिरोमणि कृता न्याय लीलावती दीधिति शंकर मिश्र प्रणीतम् न्याय लीलावती कंठाभरणम् प्रभृत्यनेका व्याख्याः उपलभ्यन्ते। शिवादित्य मिश्र कृते सप्तपदार्थी ग्रन्थे वैशेषिक सिद्धान्तानां नैयायिक सिद्धान्तैः सह मनोरमः समन्वयो कृतोऽस्ति। एतद् ग्रन्थीय प्रमाण लक्षणस्य श्रीहर्षण खण्डन खण्ड खाद्ये खण्डनम् कृतम्। अस्य ग्रन्थस्य विरचने शिवादित्य मिश्रः उदयनाचार्यस्य प्रेरणावल्याः पर्याप्तम् उपयोगम् कृतवान्। अस्य ग्रन्थस्य कतिपयाः टीकाः समुपलभ्यन्ते। तासु मल्लिनाथ कृता निष्कण्टक टीका, माधव सरस्वती कृता मितभाषिणी, सारंगधर कृता पदार्थ चन्द्रिका, अवच्चन्द्र कृता सुबोधिनी प्रमुखाः सन्ति। विश्वनाथ पञ्चानन प्रणीतः भाषा परिच्छेदः न्याय वैशिष्ट्यो सुप्रशस्तः प्रकरण ग्रन्थोऽस्ति। अस्य ग्रन्थस्य न्याय सिद्धान्त मुक्तावली नाम्नी व्याख्या स्वयमतेरैव निर्मिता यथा च स्वयमेवोक्तम् एतैः निज निर्मित कारिकावलीं मति संक्षिप्त चिरन्तनोक्तिभिः विशदीकरवाणि कौतुकात्मनिराजीव दयावशं वदः। ग्रन्थेऽस्मिन् वैशेषिक दर्शनस्य सिद्धान्तानां निरूपणं विद्यते यत्र च न्यायदर्शनस्यापि पदार्थानाम् अन्तर्भावः क्रियते। ग्रन्थोऽयं न्यायवैशेषिक उभयोः दर्शनयोः अध्येतॄणां कृते समानरूपेण हितकारी। अस्मिन् ग्रन्थे महादेव भट्ट भारद्वाजस्य दिनकरी टीका, रामरुद्र भट्टाचार्य से दिनकरी तरंगणी विकट में रामरुद्री नामनी उपटीका चात्यंतम महत्वपूर्णा अन्नम भट्ट प्रणीत तर्क संग्रह लोकप्रियतायाम द्वितीय। अयम ग्रंथ तार्किकत्वावगमाय सरलो बोधगम्यश्च ग्रंथ विद्यते न्यायवैशेषिकयोः अध्येतन अयमेव ग्रंथ सर्वप्रथमं अध्याप्यते। तैलंग ब्राह्मण आसीदयम् काशीम आगत्य चैते ज्ञानमर्जितम् काश्यामेव च मोक्षलाभः कृतः। अयम् अत्यंतं विद्वान् आसीत् एतेभ्यः उपरि एका शुक्तिर प्रसिद्धा संजाता। काशी गमन मात्रेण नान्नम भट्टायते द्विजः अस्मिन् ग्रंथे नान्नम भट्टस्यैवेका टीका उपलभ्यते यस्य नाम अस्ति तर्क संग्रह दीपिका। अस्याः टीकायाः अंतिम भागे द्रव्यादि सप्त पदार्थेषु एव दर्शनोक्त षोडश पदार्थानां अंतर्भावः अत्यंत सरलया शोभनया च रीत्या कृतः। अस्याम दीपिकायाम नीलकंठ भट्टस्य प्रकाशाख्या व्याख्या विद्यते याच नीलकंठी इति नामना प्रसिद्धि मगामात्। नीलकंठी व्याख्यायापि नीलकंठात्मज लक्ष्मी सिंह विरचिता भास्करोदया नामनी विशिता प्रामाणिकी व्याख्योप लभ्यते। एतेभ्योन्या अपि अस्य ग्रंथस्य न्यायबोधिनी गोवर्धन मिश्रकृता पदकृत्यम विकटम चंद्रज सिंह कृतम आदि टीका उपलभ्यन्ते याश्च पठने पाठने चात्यंतं प्रचलिताः सन्ति। ग्रंथोऽयं स्वकीयायाः भाषायाः सारल्येन शैली सौन्दर्येण स्वल्पकायतया साकमेव विषयस्य संपूर्णतया अतीवोपयोगी अतएव देशस्य विभिन्नासु परीक्षासु पाठ्यपुस्तक रूपेणायं ग्रंथः स्वीकृतः। ग्रंथेस्मिन् निरन्तरं टीकाः प्रणीयन्ते हिन्द्याम् आंग्लभाषायाञ्च अस्य ग्रंथस्यानुवादः संजातोऽस्ति। जगदीश तर्कालङ्कारः नवद्वीपस्य अत्यन्तं प्रसिद्धो महानैयायिकः आसीत्। जगदीशी नामको ग्रंथः एतैरेव प्रणीतः। शब्दशक्ति प्रकाशिकायाः सम्मानं तु विद्वद्वृन्दः जानात्येव किन्तु अल्पज्ञेभ्यः अध्येतृभ्योऽपि एतैः प्रकरणग्रन्थस्य प्रणयनं कृतम् यश्च तर्कामृत नाम्ना प्रसिद्धिः। ग्रन्थोऽयम् अत्यन्तं सरलः प्राञ्जलश्च विद्यते। अस्मिन् ग्रन्थे भावाभावभेदेन पदार्थस्य वैविध्यम् उक्त्वा अनन्तरञ्च भावपदार्थस्य द्रव्यादयः षड्भेदाः प्रकीर्तिताः। एवं प्रकरणेन सप्तानां पदार्थानां अस्मिन् ग्रन्थे वर्णनम् अस्ति। तर्कभाषायाः लेखकः केशवमिश्रः। केशवमिश्रस्य जीवनयात्रा विषये किञ्चिदपि लेखनं कल्पनावैदुष्यं परित्यज्य नान्यत् किञ्चिदस्ति। केशवमिश्रेण असिद्ध हेत्वाभासनिरूपणावसरे उदयनाचार्यस्य मतम् उद्धृतम् अस्ति। अत्रोदयनेन व्याप्तस्य हेतोः पक्षधर्मतया प्रतीतिः सिद्धिस्तदभावो असिद्धिरिति असिद्धलक्षणम् उक्तम्। एतस्मात् इदं तु स्पष्टं भवति यत् केशवमिश्रस्य पूर्व सीमा उदयनस्य कालोऽस्ति यश्च दशमी शताब्दे स्वीक्रियते। उत्तरसीमा च तर्कभाषायाः टीकाः आधारीकृत्य निश्चेतुं शक्यते या च चतुर्दश शताब्दी भवितुं शक्नोति। ऐतिहासिकानां कथनम् अस्ति यत् तर्कभाषायाः टीकाकारः चिन्नम् भट्टः विकट में यही तर्कभाषा प्रकाशिका टीका विरचिता विकटबंध चतुर्दश शताब्द्यां विद्यमानस्य राज्ञो हरिहरस्य आश्रितः आसीत्। केशव मिश्र शिष्य गोवर्धन मिश्रस्य ज्येष्ठेन भ्राता पद्मनाभ मिश्रेण किरणावली भास्करे वर्धमानस्य नामोल्लेखः कृतः। येषां कालः त्रयोदश शताब्द्याः प्रथम चरणम् आसीत् अतः केशव मिश्रस्य कालः त्रयोदश शताब्द्याः तृतीयं चतुर्थं वा चरणम् अङ्गीकार्यम्। केशव मिश्र प्रणीतः अलङ्कारशेखर नामको अप्येको ग्रन्थ उपलभ्यते। एतन्न ज्ञायते यत् तर्कभाषालङ्कार शेखरोभयग्रन्थयोः लेखकः एक एव केशव मिश्रः विद्यते भिन्नौ वा विद्यते। तर्कभाषा केशव मिश्र प्रणीता तर्कभाषा सम्मिलित न्यायवैशेषिक सम्प्रदायस्य प्रकरण ग्रन्थोऽस्ति। ग्रन्थेऽस्मिन् न्यायोक्त विषयाणां प्राधान्यं बालकानां स्वल्पेन परिश्रमेण न्यायनये प्रवेशाय लेखकः ग्रन्थम् इमम् अरचयत्। बालोपि यो न्याय नये प्रवेशम अल्पेन वाजघत्यलश्रुतेन संक्षिप्त युक्तन्वित तर्क भाषा प्रकाशते तस्य कृते मय ईशा स्वकीयेस्मिन् उद्देश्ये ग्रंथकारः संपूर्णतया सफलः इदमस्य ग्रंथस्याध्ययनेनावगम्यते। न्यायवैशेषिको भय दर्शनयोः पदार्थानां संक्षिप्तया सुरम्या च शैल्या ग्रंथकारः विवेचनमकारयेन च केवलं छात्राणाम् अपि तु विदुषामपि अत्यन्तं हितम् अभवत्। अयमेकम् आदर्श प्रकरण ग्रन्थः विद्यते। अस्मिन् ग्रन्थे भारतीय दर्शनानां मुख्यानां मन्तव्यानां यथावसरे समीक्षा कृता विद्यते। यथा मीमांसक दर्शनीय कारणलक्षणस्य प्रमाणलक्षणस्य च स्पष्टतः निराकरणं कृतमस्ति। बौद्धानां क्षणिकत्ववादस्यापि निराकरणम् अत्र विद्यते। तर्कभाषायाः टीकानां संख्यात्यन्तम् अधिका विद्यते, ताश्चोत्कृष्टैः विद्वद्भिः प्रणीताः विद्यन्ते। तासु प्रमुखाः टीकाः निम्नाङ्किताः। उज्ज्वला गोपीनाथ कृता, तर्कभाषाभावः रोम बल्लव वेंकट बुद्ध कृताः, न्याय संग्रह रामलिंग कृताः, सारमंजरी माधव देव कृता, परभाषा दर्पणः भास्कर भट्ट कृतः, युक्ति मुक्तावली नागेश भट्ट कृता, तत्व प्रबोधिनी गणेश दीक्षित कृता, तर्क दीपिका केशव भट्ट कृता, न्याय प्रदीप विश्वकर्मा कृतः, तर्क भाषा प्रकाशिका बालचंद्र कृता, तर्क भाषा प्रकाशिका चिन्नम भट्ट कृता, तर्क भाषा प्रकाशिका कौडिन्य दीक्षित कृता, तर्क भाषा प्रकाशिका गोवर्धन मिश्र कृता, तर्क भाषा प्रकाशिका गौरीकांत सार्वभौम कृता। एताभिरतिरिक्ता अपि हिन्द्याम् आंग्ल भाषायां संस्कृते च अस्य ग्रन्थस्य टीका अनुवादाश्चोपलभ्यन्ते। तस्मिन्नेव क्रमे अयं प्रस्तुतः टीका ग्रन्थोऽपि आयाति। तर्कभाषायाः प्रतिपाद्यम्। तर्कभाषायाः प्रतिपाद्यम् प्रमुखतः प्रमाणप्रमेयादि गौतमसूत्रोक्तानां षोडश पदार्थानां निरूपणमस्ति। यतो हेयं न्यायदर्शनस्य प्रकरणग्रन्थोऽस्ति, ग्रन्थकारश्च वैशेषिकदर्शनाभिमतानपि पदार्थान् प्रतिपादयितुं वाञ्छति। अतः ग्रन्थकारस्यैषां समस्या विद्यते यत् सः केन कारणेन द्रव्यादीनां सप्तानां पदार्थानां निरूपणं कुर्यात्। पूर्वम् अस्माभिरुल्लेखः कृतः यत् वरदराजाचार्यः स्वकीये तार्किकलक्षान्नामके ग्रन्थे न्यायसिद्धान्तान् निरूपयन् वैशेषिकपदार्थानामपि प्रमेयान्तर्गतत्वेन निरूपणम् अकारत्। यद्यपि आत्म शरीरेन्द्रियार्थ बुद्धिमनः प्रवृत्ति दोष प्रत्यभाव फलदुःखापवर्गास्तु प्रमेयम्। न्यायसूत्र 117 सूत्रद्वारा महर्षिणा गौतमेन प्रमेयस्य द्वादशविधत्वं प्रतिपादितम्। अतः तै मोक्षै साक्षादनं गत्वा दक्षपादेन लक्षितम् इति कृत्वा उक्तशङ्कायाः समाधानं कृतम्। तर्कभाषाकारस्य केशवमिश्राय प्रमेयान्तर्गतत्वेन तार्किकलक्षोक्तेन क्रमेण द्रव्यादीनां पदार्थानां निरूपणं नह्य रोचत। सम्भवतः इदमेवास्य कारणं स्यात् यत् तार्किकलक्षोक्तया रीत्या द्रव्यादिपदार्थानां ज्ञानं साक्षान्नैव मोक्षकारणम् अस्ति। महर्षिणा कणादेन च स्पष्टम् उच्यते, धर्मप्रसूताद्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म वैधर्म्याणां तत्त्वज्ञानान् निःश्रेयसं विकटम् वैशेषिक सूत्र 114 विकटबन्ध। द्रव्यगुणकर्मसामान्यविशेषसमवाय पदार्थानां विकट में अर्थतः अभावस्यापि साधर्म्य वैधर्म्याणां धर्मप्रसूता तत्त्वज्ञानान् निःश्रेयसाधिगमो भवति। अतः तार्किक रक्षा वैशेषिक सूत्रयोः परस्परं मतभेदो अवलोक्यते। अतः केशव मिश्रेण द्रव्यादीनां पदार्थानां निरूपणं अर्थप्रमेयान्तर्गतत्वेन क्रियते। अनेन प्रकारणैः तेषां पदार्थानामपि तत्त्वज्ञानं साक्षान् मोक्षकारणं भवति, यथा च वैशेषिक सूत्रे प्रतिपादितम्। किन्तु अर्थप्रमेयान्तर्गतत्वेन द्रव्यादिपदार्थानां समावेशकारणे न्यायदर्शनकारमतं नैव साम्यं भजते, यदि न्यायभाष्यानुसारेण वृत्त्यनुसारेण च विवेचनं क्रियते। न्यायदर्शने अर्थशब्दतः इन्द्रियार्थानां ग्रहणं क्रियते। सूत्रमस्ति गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः। न्यायसूत्र 1.1.15 अत्र न्यायभाष्यकारस्य व्याख्या विद्यते। इत्यादीनां यथा विनियोगं गुणा इन्द्रियाणां यथाक्रमम् अर्थाः विषया इति न्यायसूत्रम् 1.1.15। एवं प्रकारेण उक्तसूत्रे तदर्थाः इत्यस्य इन्द्रियार्थः इति अर्थपदस्य च विषय इति अर्थः स्वीक्रियते। एतदनुसारेण आत्मशरीराद्विद्वादशक्रमेयेषु अर्थपदाद्यस्य प्रमेयस्य प्रतिपादनं कृतम्। स इन्द्रियार्थरूपोऽस्ति। इन्द्रियार्थाश्च गन्धरसरूपस्पर्शशब्दाख्याः पञ्चगुणाः अर्थपदवाच्या, ये च क्रमशः पृथ्वी जलतेजो वायु आकाशानां पञ्चानां द्रव्याणां गुणाः। एवं प्रकारेण न्यायभाष्यकारे अनुसारणेतै पञ्चगुणा एव अर्थपदवाच्याः। कृतिकारस्य विश्वनाथस्याप्येत देवाभिमतम् अतः तर्कभाषाकारस्य केशवमिश्रस्य मतं न्यायभाष्यसम्मतं तु नास्त्येव, अत एव न्यायदर्शनसम्मतं नास्ति इति प्रतीयते। न्यायभाष्यकार वाच्यायनानुसारेण तु तार्किकरक्षानुसारं प्रमेयान्तर्गतत्वेनैव द्रव्यादिपदार्थानां निरूपणं सङ्गच्छते। यथा तार्किकरक्षाकारः वरदराजः द्रव्यादिपदार्थानां तत्त्वज्ञानं साक्षात् मोक्षकारणं नाङ्गीकरोति, तथैव वाच्यायनोऽपि द्रव्यादिपदार्थानां तत्त्वज्ञानं साक्षात् मोक्षकारणं नाङ्गीकरोति। अस्त्यन्यदपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयं तद्भेदेन च परिसङ्ख्येयम्। अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात् संसार इति उपदिष्टं विशेषेणेति प्रमेयविभाजकसूत्र भाष्य न्यायदर्शन 1.1.7। यद्यपि एतैः द्वादश प्रमेयैरन्यापि प्रमेयाणि सन्ति, यथा द्रव्यं गुण कर्म सामान्यं विशेषः समवायश्च, एतेषाम् अवान्तरभेदेन च परिसङ्ख्येयाणि प्रमेयाणि सन्ति, परन्तु आत्मादिप्रमेयाणां तत्त्वज्ञानादपवर्गो मिथ्याज्ञानाच्च संसारो भवति। अतः एतान्येव प्रमेयाणि विशेषतः प्रतिपादितानि अनेन विवेचनेन स्पष्टीभवति यत् तार्किकरक्षायाः प्रमेयनिरूपणं न्यायभाष्यानुसारि विद्यते, तथा तर्कभाषायाः अर्थप्रमेयान्तर्गतत्वेन द्रव्यादिपदार्थानां निरूपणं न्यायभाष्यानुसारि नास्ति। परन्तु नैव वक्तुं शक्यते यत् तर्कभाषाकारस्य निरूपणं न्यायदर्शनानुकूलं नास्ति। एतच्च न्यायवार्तिकतात्पर्यटीकयोरनुशीलनेन अवगम्यते। न्यायवार्तिककारोद्योतकरः न्यायभाष्यकारेण वात्स्यायनेन उक्तसूत्रोपरिकृत्या व्याख्याया नैव सहमतिम् आदत्ते। श्रीमद् उद्योतकरेण तत्र प्रश्न उपस्थापितः यत् पृथिव्यादिगुणः इति सूत्रघटके पदे कः समासो विद्यते। पृथिव्यादीनां गुणः इति षष्ठी समासोऽस्ति, पृथिव्यादीनि गुणाश्च इति द्वन्द्वसमासोऽस्ति, अथवा पृथिव्यादयो गुणाः येषाम् इति बहुव्रीहि समासं विद्यते इति अनेक समासोपपत्तौ इति प्रश्नोऽयं समुदेति यत् अत्र कः समासः विद्यते। एवं प्रश्नमुपस्थाप्य पुनः वार्तिककृता समाधानं कृतं यदत्र द्वन्द्वः समासो विद्यते इति तत्त्वं कथम् इति चेत् तदोत्तरं दीयते यत् यदि अत्र षष्ठी समासः स्यात् तदा द्वे आपत्तिः आयातः। प्रथमेषा यत् पृथिव्यादयो इन्द्रियार्थः व्यकर्म इन्द्रियविषयः नैव भविष्यन्ति, वस्तुतः ते इन्द्रियार्थः इन्द्रियविषयः भवन्ति। द्वितीयापत्तिरेषा अस्ति यद् विशेषणमेव व्यर्थी भविष्यति, विशेषणस्य प्रयोजनं भवति इतरव्यावृत्तिः। गन्धादिगुणास्तु पृथिव्यादिगुणः एव भवन्ति, अन्यस्य कश्चित् गुणः अस्तु न भवन्ति। यदि गन्धादयो अन्यस्यापि गुणाः अवश्यन् तदा तेषां पृथिव्यादिगुणः इति विशेषणेन व्यावृत्तिरभविष्यत् नैवमस्ति, अत एव विशेषणमपि व्यर्थी भविष्यति। अतः षष्ठीसमासस्योपपादनं नैव कर्तुं शक्यते, बहुव्रीहिसमासोऽपि नैव कर्तुं शक्यते, यतोहि पृथिव्यादयो नैव कस्यचिदपि गुणाः भवितुं शक्नुवन्ति। व्यधिकरणबहुव्रीहिस्तु कस्यचिद् ज्ञापकस्य सत्त्वे एव भवति, ज्ञापकाभावाच्च व्यधिकरणबहुव्रीहिसमासोऽपि कर्तुं शक्यते। एताभ्याम् उभाभ्याम् अन्यस्य केवलं द्वन्द्वस्यैव समासस्य सम्भवात् अत्र द्वन्द्वसमासोऽस्ति। एवं स्पष्टीभवति यत् न्यायवार्तिककारः न्यायभाष्यकृता वाच्यायनेन सहमतो नास्ति। ज्ञातव्यम् अस्ति यद् भाष्ये षष्ठीसमासः स्वीकृतः एव। गन्धादयः पञ्चगुणाः विकटमे गन्धरूप रस स्पर्श शब्दाः संख्या परिमाण पृथक् संयोग विभाग परत्व तत्व स्नेह वेग कर्म जाति विशेष समवायः एते सर्वत्र अर्थपदवाच्याः। परन्तु अत्र एकः प्रश्नः समुदेति यत् यद्येवमेवास्ति तदा गन्ध रस रूप स्पर्श शब्दाः पृथिव्यादिगुणास्तदर्थाः एतावत् बृहत सूत्र निर्माणापेक्षया पृथिव्यादि गुणासदर्थः इत्येवं सूत्रम् उचितम्। यतो हि यथा संख्या परिमाणादीनां परिग्रहः भवता क्रियते तथैवैतेषां गुणानामपि ग्रहणं भविष्यति। तदा वार्तिककारस्य कथमस्ति यत् एषा अपेक्षास्तु समुचितः, परन्तु एवं लघुसूत्रमनिर्माय दीर्घसूत्रनिर्माणस्य किञ्चिद् अन्यमपि प्रयोजनमस्ति। तत्प्रयोजनमस्ति इन्द्रियविशेष नियमस्य ज्ञापनम्। एतेषु गन्धादिषु पञ्चसु गणेषु इन्द्रियविशेषनियमः विद्यते। एतदेव ख्यापनाय एतावत् दीर्घसूत्रम् निर्मितम्। पृथिव्यादीनाम् इन्द्रियार्थत्वे वार्तिककृता शास्त्रम् युक्तिश्चोभयमपि प्रदर्शितवान्। शास्त्रमपि विद्यते दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्। विकट में न्यायदर्शन 3.1.1 युक्तिरपि विद्यते यद्दर्शनेन स्पर्शनेन च द्वारा एको विषयः गृहीतो भवति इति कृत्वा प्रतिज्ञानाम् इन्द्रियार्थत्वं न्यायवार्तिककृता प्रतिपादितम्। गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणासदर्थाः इत्येतत् सूत्रम् पृथिव्यादिगुणः इत्येतस्मिन् पदे अनेकः समासः भवति। कथम् इति, पृथिव्यादीनां गुणः इति षष्ठी समासः, पृथिव्यादीनि गुणाश्चेति द्वन्द्वसमासः, पृथिव्यादयो गुणाः येषाम् इति बहुव्रीहिः, एवम् अनेक समासोपपत्तेः संशयः किमत्र तत्त्वम् इति। द्वन्द्वसमासः इति तत्त्वम् षष्ठी समासः तावन्न पृथिव्यादीनाम् अनिन्द्रियार्थत्वप्रसङ्गात्। यदि पृथिव्यादीनां गुणः इति षष्ठी समासः स्यात्, पृथिव्यादीनां गन्धादिविशेषणत्वोनपयुक्तानाम् इन्द्रियार्थत्वम् न स्यात्, विशेषणवैयर्थ्यम् च स्यात् इति। न हि गन्धादीनां द्वैराश्यम् अस्ति पृथिव्यादिगुणत्वम् चान्यगुणत्वम् च, यतो विशेषणम् अर्थवत् स्यात् तस्मान्न षष्ठी समासः। गुणिनाम् सिद्धिर्न बहुव्रीहि, नापि पृथिव्यादीनां गुणत्वं प्रसिद्धम्। उभय समास प्रतिषेधादन्य समासाभावाच्च द्वन्द्वः। उभयं पृथिव्यादीनाम् इन्द्रियार्थत्वे शास्त्रं युक्तिसम्भवति। शास्त्रं तावत् दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् इति, युक्तिरपि दर्शनस्पर्शयोरेकविषयत्वेन प्रतिसन्धानम्। यमहमद्राक्षं तम् स्पृशामीति दृष्टिस्पर्शविषया युक्तिः, शास्त्रमप्यस्मिन् पक्षे सम्भवतीति ऐन्द्रियकत्वाभिधानाच्च सामान्यस्येति, तस्मात् सिद्धं पृथिव्यादीनि गुणाश्चेति द्वन्द्वः समासः इति। पृथिव्याधिग्रहणेन पृथिव्यप्तेजांसि बाह्यकरणग्राहाण्यप्रदृश्यन्ते, गुणग्रहणेन च सर्वाश्रितो गुण इति संख्या परिमाणपृथक्त्वसंयोग विभागपरत्वापरत्वस्नेहवेग कर्मसामान्यविशेषः अनाश्रितश्च समवायस्तद्धर्मत्वात् गुण इति। गन्धरसरूपस्पर्शशब्दास्तर्हि पृथङ् न वक्तव्याः। गुणग्रहणेन ग्रहणात् गन्धरसरूपस्पर्शशब्दानां पृथग्विधानाम् इन्द्रियविशेष नियमज्ञापनार्थं न्यायवार्तिक न्यायसूत्र 1.1.15। तर्कभाषायां केशवमिश्रेण अर्थपदार्थः किञ्चिदधिकं विस्तृतं कृत्वा अर्थपदात् द्रव्यादिपदार्थानां ग्रहणं कृतम्। एवं यद्यपियं तर्कभाषाकाराणां स्वतन्त्रा व्याख्या अस्ति, परन्तु शास्त्रसम्मता अपि विद्यत एव। किन्तु प्रश्नो भवति यत् यदि द्रव्यादिषट्कपदार्थानां प्रतिपादनं करणीयमेव अस्ति, तर्हि तेष्वेव न्यायदर्शनस्यापि प्रमाणादि षोडश पदार्थानाम् अन्तर्भावः कर्तुं शक्यत एव। पुनः पृथङ् निर्वचनस्य किं प्रयोजनम्? अस्य प्रश्नस्येदम् उत्तरमस्ति यत् प्रमाणादिपदार्थानां ज्ञानस्य किञ्चित् विशिष्टं प्रयोजनमस्ति, अत एवैतेषां पदार्थानां विशेषपरिचयाय पृथङ् निर्वचनमस्ति। एतदुत्तरं तर्कभाषाकारेण प्रदत्तम्। अभिप्रायोऽस्ति यत् यदि प्रमाणादिपदार्थानां प्रतिपादनं द्रव्यादिषट्पदार्थानाम् अन्तर्गतत्वेन क्रियते, तर्हि न्यायदर्शनं वैशेषिकदर्शनादन्यम् एकं पृथक् दर्शनं नैव भवितुं शक्नोति। अतः न्यायदर्शनस्य स्वतन्त्रदर्शनत्वरक्षणाय अत्र प्रमाणादिपदार्थानां पृथङ् निर्वचनं कृतमस्ति। अस्य ग्रन्थस्यारम्भः प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावतर्कनिर्णयवाज्जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रस्थानानां तत्त्वज्ञानान्निःश्रेयसादिगमः इति सूत्रेण कृतोऽस्ति। अस्मिन् सूत्रे परिगणितानां पदार्थानाम् इवादेशः लक्षणपरीक्षाक्रमेण निरूपणम् अस्ति। प्रमाणम्। एतेषु षोडश पदार्थेषु प्रथमम् उद्दिष्टमस्ति प्रमाणम्। प्रमायाः यत् करणं भवति तदेव प्रमाणम् इत्युच्यते। प्रमापदेन यथार्थानुभवोऽभीष्टः, करणपदस्य च साधकतमरूपोऽभीष्टः, अर्थात् व्यापारवत् साधारणं कारणं करणम इत्युच्यते। करणानि उभय प्रकारकाणि भवन्ति, साधारणानि असाधारणानि च। साधारण कारणानि ज्ञानम्, ईश्वरीय कृतिः, दिक्, कालः, अदृष्टम् आदयः सन्ति, यतो हि एतानि समानि कार्याणि प्रतिकारणानि सन्ति। यच्च कार्यविशेषं प्रतिकारणं भवति तद् साधारण कारणम् इत्युच्यते। यथा घटादिकं प्रति कारणीभूतानि दण्डादीनि असाधारण कारणानि। इदानीं प्रश्नोऽयं जायते यत् कारणपदेन कः उच्यते। अस्मिन् प्रसंगे तर्कभाषाकारेण कारणविषये प्रतिपादितम् अस्ति यत् यस्य कार्यं प्रति पूर्वभावो नियतो अन्यथा सिद्धश्च भवति तत् कारणम् इत्युच्यते। अस्य कारणस्य त्रयो भेदाः प्रकीर्तिताः, समवायिकारणम्, असमवायिकारणम्, निमित्तकारणञ्च। अत्र संवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् इत्युच्यते। तथा घटं प्रति कपालौ, घटरूपं प्रति घटम्, समवायिकारणे प्रत्यासन्नं सत् यत् कारणं भवति तत् समवायिकारणम् इत्युच्यते। यथा तन्तूनां संयोगः तन्तुषु प्रत्यासन्नः पटं प्रति कारणं भवति, स संयोगश्च पटसमवायिकारणमस्ति। आभ्यां कारणाभ्यां भिन्नं यत् कारणं भवति तन्निमित्तकारणम् इत्युच्यते। यथा तुरीवेमादिकानि पटं प्रति निमित्तकारणानि भवन्ति। अनेन प्रकारेण प्रमाणनिरूपणावसर एव तर्कभाषाकारेण कारणामपि निरूपणं कृतम्। अन्ते च प्रश्नोऽयम् उत्थापितः यत् प्रमा प्रति प्रमात्र प्रमेयादि कतिपय कारणानां सत्त्वेऽपि एतेषु कारणं किम्। पुनश्च समाधीयते यत् प्रमातरि प्रमेये च सत्यप्रमायाः उत्पत्तिर्न भवति, इन्द्रियसंयोगादीनां सत्त्वे तु अविलम्बेनैव प्रमाया उत्पत्तिर्भवति। अतः इन्द्रियसंयोगादिरेव कारणं प्रमायाः। सत्रपि प्रमातरि प्रमेये च प्रमाणोत्पत्तेरिन्द्रियसंयोगादौ सति अविलम्बेन प्रमोत्पत्तेतः इन्द्रियसंयोगादिरेव करणम्। पृष्ठसङ्ख्यादस्तर्कभाषा प्रत्यक्षानुमिति उपमिति शाब्दबोधात्मक प्रमाणम् चातुर्विद्यात् प्रत्यक्षानुमानोपमानशब्दाख्यानां प्रमाणानामपि चातुर्विध्यं प्रत्यक्षप्रमाणम्। इन्द्रियसन्निकर्षोत्पन्ना प्रमा प्रत्यक्ष इति तस्याः करणञ्च प्रत्यक्षप्रमाणम् इत्युच्यते। एषा प्रत्यक्षप्रमाणा द्विविधा भवति, निर्विकल्पात्मिका स्विकल्पात्मिका च। आत्मा मनसा मनः इन्द्रियेण इन्द्रियम् अर्थेन सम्बध्यते यदा तदा नामजात्यादि योजनारहितं वस्तुमात्रावगाहि यज्ज्ञानं भवति तद्ज्ञानं निर्विकल्पक प्रत्यक्षप्रमेत्युच्यते। निर्विकल्पकानन्तरं नामजात्यादि योजनासहितम् अयं घटः, अयं ब्राह्मणः इत्याद्याकारकं यत् विशेषणं विशेष्याभावावगाहि ज्ञानम् उत्पद्यते तत् सविकल्पक प्रत्यक्षप्रमेत्युच्यते। प्रत्यक्षप्रमायाः कारणान्यपि तर्कभाषाकृदनुसारेण त्रीणि भवन्ति, इन्द्रियम्, इन्द्रियार्थसन्निकर्षः, ज्ञानञ्च। कुत्रचिदिन्द्रियं प्रत्यक्षप्रमाणं भवति, यथा निर्विकल्पज्ञानस्य करणतया इन्द्रियं प्रत्यक्षप्रमाणं भवति, इन्द्रियार्थसन्निकर्षस्य व्यापारो भवति। सविकल्पक प्रत्यक्षप्रमाणं प्रति इन्द्रियार्थसन्निकर्षः करणं भवति, निर्विकल्पज्ञानाच्च व्यापारो भवति। उक्तसविकल्पज्ञानानन्तरं हानोत्पादानोपेक्षाबुद्ध्या क्रमशः यथा योग्यं भवन्ति। एतानि ज्ञानानि अपि प्रत्यक्षप्रमात्मिकानि एव एतानि प्रति निर्विकल्पज्ञानमेव करणम्। सविकल्पक प्रत्यक्षप्रमा च व्यापारः। तर्कसङ्ग्रहादिषु ग्रन्थेषु निरूपणम् अस्ति यत् प्रत्यक्ष इन्द्रियाण्येव करणानि इन्द्रियार्थनिकर्षस्य व्यापारः। तन्मतम् अत्र ग्रन्थे अत्र कश्चिदाः इति कृत्वोल्लिख्यते। सन्निकर्षाणां विभागस्तु मुक्तावलीतर्कसङ्ग्रहादि सदृश एव संयोग संयुक्तसमवाय संयुक्तसंवेदसमवाय समवाय संवेदसमवाय विशेष विशेषणभावभेदात्। द्रव्य प्रत्यक्षे संयोगः, द्रव्य संवेद द्रव्य गुण क्रम सामान्यानां प्रत्यक्षे संयुक्त समवायः, द्रव्य संवेद संवेतानां गुणत्वं कर्मत्वादिजातीनां प्रत्यक्षे संयुक्त संवेद समवायः, शब्द प्रत्यक्षे समवायः, विकट में सोत्रावच्छिन्न समवायः, शब्द संवेद शब्दत्व कत्व खत्वादिजातीनां प्रत्यक्षे सोत्रावच्छिन्न संवेद समवायः, समवायाभावयोः प्रत्यक्षे विशेषण विशेष्य भावः सन्निकर्षो भवति। अनुमानम् अनुमिति प्रमायाः करणम् अनुमान प्रमाण इत्युच्यते। तर्कभाषाकारानुसारेण लिङ्गपरामर्श एवानुमितिः, करणत्वाद् अनुमानम् इत्युच्यते। व्याप्तिबलेनार्थगमकं लिङ्गं भवति, यथा धूमः अग्निगमकत्वात् लिङ्गं भवति। साहचर्यनीयरूपव्याप्ते ग्रहणे सञ्जाते धूमात्मको हेतुरग्नेरनुमापको भवति, अतः लिङ्गम् इत्युच्यते। तस्य धूमस्य परामर्श एवानुमितिकरणं भवति। अत्र अनुमीनैः नैयायिक ही साधम तर्कभाषाकारस्य वैमत्यम अस्ति। नवीनैयायिकानुसारेण व्याप्तिज्ञानम एवानुमितिकरणम् परामर्शस्य व्यापारः। तर्कभाषाकारानुसारेण तु परामर्श एवानुमितिकरणम् अनुमानमिदं द्विविधं स्वार्थानुमानं प्रार्थानुमानं च। स्वार्थानुमानं स्वयं ज्ञानकरणं भवति। प्रार्थानुमानं तदुच्यते यत्र कश्चित् स्वयं धूमादिहेतुना साध्यानुमाय अन्यं प्रतिबोधयितुं प्रतिज्ञा हेतु उदाहरणम् उपनय निगमनाख्यान पञ्चावयवान प्रयुङ्क्ते। व्याप्तिभेदेन अनुमानस्य त्रैविध्यम् अन्वय व्यतिरेक केवलान्वय केवल व्यतिरेक भेदात् अन्वय व्यतिरेको भय व्याप्ति दृष्टान्त सहितो हेतुरन्वय व्यतिरेकी तुच्यते। केवलम अन्वय व्याप्ति दृष्टान्त सहितम केवलान्वयी केवलम व्यतिरेक व्याप्ति दृष्टान्त सहितम केवल व्यतिरेकी। उपमानम उपमिति प्रमायाः करणम यच्च सादृश्य ज्ञानम भवति तदुपमानम प्रमाणम। गो सदसो गवयः इति अतिदेशवाक्यम केनचिदारण्यकेन पुरुषेण सुत्ता वनम गतः। कश्चित् ग्रामीणः यदा तं गोसादृश्य विशिष्टं पिण्डं पश्यति तदनन्तरं च गोसादृश्यस्य यज्ञानं भवति तदेवोपमानं प्रमाणम्। तद्वारा पिण्डोऽयं गवयशब्दवाच्यः एवं यत्संज्ञासंज्ञसम्बन्धस्य प्रतीतिर्भवति स एवोपमिति प्रमेयोच्यते। शब्दप्रमाणम् आप्तवाक्यं शब्दप्रमाणम् इत्युच्यते। यथाभूतस्यार्थस्योपदेष्टा पुरुषम् एवाप्तपदेन व्यवहारविषयो भवति। आकाङ्क्षायोग्यतासन्निधिवताम् पदानां यः अहतोच्चरितः समूहः तच्छब्दप्रमाणम् तज्जन्यो बोधश्च शाब्दबोधात्मिका प्रमेत्युच्यते। एभिः चतुर्भिः प्रमाणैरतिरिक्तमपि अन्यदार्शनिकैः अर्थापत्तिरभावश्च प्रमाणम् स्वीक्रियते। तर्कभाषाकारा अर्थापत्तिः अभावयोः नातिरिक्त प्रमाणत्वम् अंगीकुर्वन्ति। अर्थापत्तेरनुमानेऽन्तर्भावं कुर्वन्ति। अभावस्य ग्रहणं तु प्रत्यक्ष प्रमाणेनैव भवति। अतः तद्ग्रहणाय भावनामम् अतिरिक्तं प्रमाणं नांगीकर्तव्यं नास्ति तस्यावश्यकता। प्रसंगतः प्रामाण्यस्य परतस्त्वमपि तर्कभाषाकृता प्रतिपादितम्। प्रमेयाणि आत्मशरीर इंद्रिय अर्थ बुद्धिमनः प्रवृत्ति दोष प्रत्यभाव फल दुःख अपवर्गाः एतानि द्वादश प्रमेयाणि। आत्मा आत्मत्व जातिमान आत्मेत्युच्यते। अयम् आत्मा देहेन्द्रियादिभ्यो व्यतिरिक्तः प्रत्येकं शरीरं भिन्नः नित्यः विभुश्च मानस प्रत्यक्षस्यायं विषयो भवति बुद्ध्यादि हेतुभिश्चानुमेयः। अत्युत्तर्कभाषा कृता परमात्मनः नैव काचित् चर्चा कृतः। शरीरम् इदमात्मना भोगायतनम् अन्त्यावयवी भोगपदेन सुखदुःख साक्षात्कारात् दुःख साक्षात्कारयो ग्रहणमस्ति। हितप्राप्तिः अहितपरिहारानुकूला क्रिया चेष्टेत्युच्यते। तस्याः आश्रयत्वमपि शरीरस्य लक्षणम्। इन्द्रियाणि शरीरेण संयुक्तं यज्ञानकरणम् अतीन्द्रियः पदार्थः तदिन्द्रियम् एतानिन्द्रियाणि च षट् सन्ति घ्राणं रसनं चक्षुः त्वक् श्रोत्रं मनश्च। अर्थाः अर्थपदात् अत्र द्रव्यगुणकर्मसामान्यविशेषसमवायानां निषेधमुखस्याभावस्य च ग्रहणमस्ति। समवायिकारणं गुणाश्रयो वा द्रव्यम् इत्युच्यते। एतानि द्रव्याणि च पृथ्वी जल तेजो वायु आकाश कालदि आत्म मनांसि सन्ति। पृथ्वीत्व जातिमति पृथ्वी अश्याम रूप रस गंध स्पर्श संख्या परिमाण पृथक्त्व संयोग विभाग परत्व अपरत्व गुरुत्व द्रवत्व संस्काराख्यश्चतुर्दश गुणाः विद्यन्ते। पृथ्वी चेयम् नित्या नित्या द्विधा अनुलक्षणा पृथ्वी नित्या गणकादि रूपा अनित्या। अस्याः रूप रस गंध स्पर्शाः पाकजन्याः। जलत्व जातिमज्जलम् पृथिव्या ये त्रयोदश गुणाः ते गन्धहीनाः स्पर्शयुताः जलेऽपि स्थीयन्ते। रूपादेवत्रापाकजाः तेजसत्व जातिमत्तेजः दिव्य भौम उदर्य आकरज भेदेनास्य चातुर्विध्यम्। अस्मिन् रूपस्पर्शौ संख्यादयः पञ्च परत्वापरत्व संख्याकाराख्या एकादश गुणाः विद्यन्ते। वायुत्व जातिमान वायुः स्पर्शः संख्यादयः पञ्च परत्वापरत्ववेगाख्याः नव गुणाः वायुः संवेताः विद्यन्ते। शब्दगुणवद् आकाशम् स
शब्दः संख्यादयः पञ्च चास्य गुणाः शब्दरूपेण हेतुना एवास्य अनुमानं भवति। काले दिशि च केवलं संख्यादयः पञ्च सामान्यगुणाः अवतिष्ठन्ति। वैशेषिकपरत्वापरत्वाभ्यां दिशायाः कालिकपरत्वापरत्वाभ्यां च कालस्यानुमानं भवति। आकाशकालदिशात्रयोऽपि सजातीयद्वितीयरहिताः नित्याभिभूतवन्तश्च सन्ति। आत्मनस्तु पृथगेव निरूपणं कृतं। मनस्तु जातिमन्मनः अनुरिद आमात्मसंयोगी। अन्तरिन्द्रियम् इदञ्च सुखाद्युपलब्धिसाधनं करणं नित्यञ्च। मनसि च संख्यादयः पञ्च परत्वापरत्ववेगाख्यसंस्कारश्चेत्यष्टौ गुणाः अवतिष्ठन्ति। प्रत्यात्मनीतत्वादनन्तम् रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मअधर्मसंस्कारभेदाद्गुणाः चतुर्विंशतिसङ्ख्याकाः। चक्षुर्मातृग्राह्यो विशेषो गुणोरूपम् पृथ्वीजलतेजोवृत्तिः शुक्लनीलपीतरक्तहरित्कपिश्चित्रभेदात् सप्तविधम्। रसनाग्राह्यो गुणोरसः पृथ्वीजलोभयवृत्तिः मधुराम्ललवणकटुकषायतिक्तभेदात् षट्प्रकारकः। ग्राणग्राह्यो गुणः गन्धः पृथ्वीमातृवृत्तिः सौरभासौरभभेदेन द्विविधः। तङ्मातृग्राह्यो गुणस्पर्शः पृथिव्याज्यतुष्टयवृत्तिः शीतोष्णानुष्णाशीतभेदेन त्रिविधः। एकत्वादिव्यवहारकारणीभूतासङ्ख्या मानवव्यवहारसाधारणं कारणं परिमाणम्। पृथग्व्यवहारसाधारणं कारणं पृथक्त्वम्। संयुक्तव्यवहारकारणीभूतसंयोगः विभक्तप्रत्ययकारणीभूतविभागः। एते पञ्च सामान्यगुणाः। पराव्यवहारसाधारणं कारणं परत्वम्। अपरव्यवहारसाधारणं कारणं परत्वम्। एतत् उभयप्रकारकं भवति, दैशिकं कालिकं च। आद्यपत्नासमवायिकारणं गुरुत्वम् पृथ्वीजलवृत्तिः स्नेहचिक्कणताजलमातवृत्तिः तत्त्वग्राह्यो गुणः शब्दः आकाशमातवृत्तिः अर्थप्रकाशका बुद्धिः सुखम् प्रीतिः क्रीडा दुःखम् रागः इच्छा क्रोधो द्वेषः उत्साहः प्रयत्नः सुखदुःखयोः क्रमशः धर्माधर्मौ यथाधारणकारणभूतौ बुद्धितः अधर्मपर्यन्तः आत्मनो गुणाः। संस्कारव्यवहारासाधारणम् कारणम् संस्कारः। अस्य त्रयो भेदाः सन्ति, वेगो भावना स्थापकश्च। वेगः पृथिव्याजतुष्टयस्य मनसश्च गुणः। भावना आत्ममात्रस्य स्थितिस्थापकः। स्पर्शवद्द्रव्याणां विशेषो गुणः। कर्मण उच्छेपणापक्षेपणकुञ्चनप्रसारणगमनभेदेन पञ्चविधत्वम्। अनुगतप्रतीतिकारणं सामान्यं, द्रव्यगुणकर्मवृत्तिः सामान्यं च, नित्यमेकम् अनेके च समवायेनानुगतम्। परापरभेदेन सामान्यस्य वैविध्यम्। नित्यद्रव्यवृत्तिः व्यावृत्तिबुद्धिहेतुः विशेषो नित्यः। अयं विशेषः कालदिक् मनः सु पृथिव्याचतुष्टयस्य परमाणुषु च समवायेन तिष्ठति। एतत्सिद्धयोः अपृथक्सिद्धयोः पदार्थयोः पारस्परिकः सम्बन्धः समवायः। निषेधमुखप्रमाणगम्यो अभावरूपः सप्तमोऽप्येकः पदार्थोऽस्ति। अयं च द्विविधः, संसर्गाभाव अन्योन्याभावभेदात्। उत्पत्तेः पूर्वं कारणे कार्यस्य प्रागभावो भवति। उत्पन्नस्य वस्तुनः कारणे यः अभावः भवति स ध्वंसः। त्रयकालिको अभावः अत्यन्ताभावः। तादात्मसम्बन्धावच्छिन्नप्रतियोगिताको अभावः अन्योन्याभावः। भेदापरनामधेयः बुद्धिः उपलब्धिर्ज्ञानम् इति बुद्धिपर्यायौ। एषा द्विविधा, अनुभव स्मरणभेदात्। अनुभवस्यापि यथार्थ यथार्थ भेदात् द्वैविध्यम् अस्ति। अर्थस्य यः वास्तविको स्वरूपः तस्य विपरीतस्यार्थस्य ख्यापनं येन न क्रियते स यथार्थः। अर्थस्य यः वास्तविको स्वरूपः तद्विपरीतस्यार्थस्य ख्यापनं येन क्रियते स अयथार्थोऽनुभवः उच्यते। यथार्थानुभवस्य प्रत्यक्षानुमिति उपमिति शाब्दभेदात् चतुर्विध्यम्। अयथार्थस्य संशयविपर्ययतर्कभेदात् त्रैविध्यम्। स्मरणस्यापि यथार्थायथार्थभेदेन द्वैविध्यम् अस्ति। मनः अन्तरिन्द्रियमिदम् अर्थप्रमेयान्तर्गततया निरूपितः पूर्वमेव। प्रवृत्तिः धर्माधर्मभेदेनास्याः द्वैविध्यम् अस्ति। एतौ जगद्व्यवहारकारणीभूतौ। दोष रागद्वेषमोहाख्यात्रयो दोषाः। प्रेत्यभावः नित्वा पुनरुत्पत्तिः प्रेत्यभावः, अर्थात् आत्मनः पूर्वदेहनिवृत्तौ सञ्जातायां देहान्तरस्य प्राप्तिरेव प्रेत्यभावः।
फलम्। सुख दुख साक्षात्कार रूपा भोगः एवात्र फलम्। दुःखम् दुःखम् पीडा अर्थपदार्थान्तर्गततयापि निरूपणम्। अपवर्गः दुःखस्यात्यान्तिकी निवृत्तिरेव मोक्षोपवर्गः। दुःखपदात् शरीरम् षडिन्द्रियाणि षड् इन्द्रिय विषयाः षड् बुद्ध्यः सुखम् दुःखम् चेति एकविंशति परिग्रहः। संशय एकस्मिन् धर्मेण विरुद्ध नाना धर्माणां वैशिष्ट्यावगाहि ज्ञानम् संशयः इत्युच्यते। अयम् त्रिभिः कारणैः भवति विशेषात् दर्शने सति समान धर्म दर्शनात् विप्रतिपत्तिवाक्यात् असाधारण धर्म ज्ञानाच्च। प्रथमेन कारणेन उच्चैस्त्वादि समान धर्म दर्शनात् अयम् स्थाणुर्वा पुरुषो वा संशयो भवति। एका वदन्ति शब्दो नित्यः अपरो वदति अनित्यः इति अत्र शब्दो नित्यो वा अनित्यो वा इति संशयः द्वितीयात् कारणात् भवति। गन्धः केवलायां पृथिव्याम् एव उपलभ्यते, अत्र कुत्रचिन्नित्यपि नैव तिष्ठति न वा अनित्ये तिष्ठति, अतः असाधारणो अयम् धर्मः गन्धः। तत्र साधारणधर्मज्ञानात् विकटमतृतीयात् कारणात् संशयः भवति पृथिवी नित्या वा अनित्या वा इति। प्रयोजनम् येन प्रेरितः सन् मानवः संसारीय विभिन्नेषु कर्मसु प्रवर्तते तदेव प्रयोजनम् इत्युच्यते। सुखावाप्तये दुःखपरिहारायैव च प्राणिमात्रस्य प्रवृत्तिर्भवतीत्यतः तावेव प्रयोजनपदेनोच्यते। दृष्टान्तः आदिप्रतिपादिनो यस्मिन्नर्थे समा प्रतिपत्तिर्भवेत् अर्थात् यः अर्थः उभयो मते समानतया स्वीकृतो भवति स अर्थो दृष्टान्तः। सिद्धान्तः यः अर्थः प्रमाणिकतया स्वीकृतो भवति स अर्थः सिद्धान्तः इत्युच्यते। अस्य चत्वारो प्रभेदाः सन्ति सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तः अधिकरणसिद्धान्तः अभ्युपगमसिद्धान्तश्चेति। सर्वेषु शास्त्रेषु स्वीकृतोऽर्थः सर्वतन्त्रसिद्धान्तः इत्युच्यते। यन्मतम् एकस्मिन् शास्त्रे तत्समानशास्त्रान्तरे च स्वीकृतम् भवति तत् प्रतितन्त्रसिद्धान्त इत्युच्यते। यस्य स्वीकारम् विना अभिमतस्य सिद्धान्तस्य प्रतिष्ठा न भवति स अधिकरणसिद्धान्तः। अन्यशास्त्रस्य यः सिद्धान्तः केवलम् विचारा एव स्वीकृतः स्यात् स अभ्युपगमसिद्धान्तः इत्युच्यते। अवयवाः अनुमानवाक्यस्यैकदेशा अवयवाः प्रतिज्ञा हेतु उदाहरण उपनय निगमनाख्याः पञ्चावयवाः सन्ति। साध्यस्य पक्षे निर्देशः प्रतिज्ञा हेतुप्रतिपादिकम् वाक्यम् हेतुः व्याप्तिसहित दृष्टान्तकथनम् उदाहरणम् पक्षे व्याप्तिविशिष्टस्य हेतुरुपसंहारम् उपनयः पक्षे साध्यस्योपसंहारश्च निगमनम् तर्कः व्याप्यारोपेण व्यापकारोपस्तर्कः निर्णयः अवधारणात्मकम् ज्ञानम् निर्णयः वादः तत्त्वजिज्ञासो कथावाद इत्युच्यते। अर्थात् तत्त्वस्य जिज्ञासया यः विचारचर्चा क्रियते सा विचारचर्चावाद इति पदेनोच्यते। जल्पः विजयेच्छया च विचारचर्चा भवति स जल्पः इत्युच्यते। अस्मिन् प्रतिपक्षिणम् पराजयितुम् सर्वेऽपि सम्भवा उपायाः क्रियन्ते। वितण्डा स्वपक्षस्थापनाहीनो जल्प एव वितण्डापदेनोच्यते। जल्पवितण्डयोरिदमेवान्तरम् यत् जल्पे स्वपक्षस्योत्थापनम् भवति वितण्डायाञ्च न भवति। हेत्वाभासाः पक्षासत्त्व स्वपक्षसत्त्व विपक्षासत्त्व अबाधितत्व असत्पक्षत्वानि हेतुरनुमापक्तायाः सम्पादकानि सन्ति। येषु केनचिदपि यो हेतुरहितो भवति स हेत्वाभास इत्युच्यते। अस्य असिद्धविरुद्ध अनेकान्तिकप्रकरणार्थं कालत्यापदिष्टभेदेन पञ्चविधत्वम् विद्यते। छलम् अन्यभिप्रायेण प्रयुक्तस्य शब्दस्यार्थान्तरकल्पनया दोषप्रदानमेव छलम्। जातिः असदुत्तरम् जातिः अस्या अनेके भेदाः। निग्रहस्थानम् पराजय हेतु निग्रहस्थानम् अस्याप्यनेके भेदाः। एवम् प्रकारेण ग्रन्थकारेण एतेषाम् पदार्थानाम् निरूपणम् कृतम्। विस्तरस्तस्तु ग्रन्थे ग्रन्थव्याख्यायाञ्च द्रष्टव्यम्। सच्चिदानन्दमिश्रः मयूखः।